ॐ मातः समस्तजगतां परमस्य पुंसः शक्तिस्वरूपिणि शिवे करुणार्द्रचित्ते लोकस्य शोकशमनाय कृतावतारे श्रीशारदेस्तु शिवदे तव सुप्रभातम्। बाल्ये भवस्य तमसा परिहारयित्री लीला मनुष्यवपुषेथ गदाधराय दत्ते तदर्पित धियाप्त समस्त विद्ये श्रीशारदेस्तु शुभदे तव सुप्रभातम्। बाल्यात् परे वयसि भर्तरि संप्रवृत्ताम् उन्मत्त इत्यनुचिताम् अवधूय वार्ताम् तद्दर्शनक्रमित दुर्गमदूरमार्गे श्रीरामकृष्णदयिते तव सुप्रभातम्। सन्यासिनं पतिमवेक्ष्य च नो द्विजाने सेवार्पितत्रिकरणे परिशुद्धचित्ते तत्साधनाचरमसीम्नि समर्पिताङ्घ्रे श्रीरामकृष्णपरमेश्वरि सुप्रभातम्। यामेव चात्मजननीं भवतारिणीं च सेवा परां तु बुबुधे गुरुरस्तभेदः तस्या समस्तजगतोऽस्य शरण्यमूर्तेः श्रीरामकृष्णदयिते तव सुप्रभातम्। आवृण्वती परमिकां प्रकृतिं स्वकीयां संसारिणीव बहुदुःखजले भवाब्धौ सर्वं सहेश्रितजनोद्धरणैकदीक्षे श्रीरामकृष्णदयिते तव सुप्रभातम्। गेहस्य मार्जनविधौ मम कर्म शान्तिं नायात्यसङ्ख्यभुजनिष्क्रियमाणवेवम् आकस्मिकोक्तिविवृताखिलशक्तिरूपे श्रीरामकृष्णदयिते तव सुप्रभातम्। श्रीरामकृष्णदयिते तदधीनसत्त्वे तद्भक्तवृन्दपरिपालिनि मुक्तिदात्री तद्भावरक्तहृदये तदभिन्नतत्त्वे मातः समस्तजगतां तव सुप्रभातम्। मातः समस्तजगतां तव सुप्रभातम्। मातः समस्तजगतां तव सुप्रभातम्।